एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेले न कतिपयान् नेपालाधिनियमान् संशोधयितुं निर्मितः एतद्विक्रमवर्षीयः अध्यादेशः स्वीकृतोऽस्ति। नेपालस्य संविधानस्य अनुसारेण मन्त्री परिषदः परामर्शेन राष्ट्रपतिना पौडेले न अध्यादेशोऽयं स्वीकृतोऽस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। राष्ट्रपतिना पौडेले सांविधानिक कार्यकर्तव्याधिकार कार्यविधि सम्बद्ध एतद्विक्रम वर्षीय प्रथम संशोधनाध्यादेश पुनर्विचाराय मन्त्री परिषदि प्रत्यावर्तितोऽस्ति। असैव वैशाख मासस्य चतुर्दशे दिवसे उपविष्टेन मन्त्री परिषद उपवेशेन विहितस्य निर्णयस्य अनुसारेण परामृष्टस्य सांविधानिक परिषद कार्यकर्तव्याधिकार कार्यविधि प्रथम संशोधनाध्यादेशस्य विषयवस्तुन सन्दर्भे पुनर्विचारं कर्तुम् अध्यादेशोऽयं मन्त्री परिषदि प्रत्यावर्तितोऽस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। एवमेव विज्ञप्तौ नेपालस्य संविधानस्य अनुसारेण एतत्पूर्वं सांविधानिक परिषद कार्यकर्तव्याधिकार कार्यविधि सम्बद्धादि नियमान् संशोधयितुं निर्मितं 68-2000 विधेयकं प्रमाणीकरणाय गत विक्रमवर्षस्य आषाढमासस्य 25 दिवसे राष्ट्रपतेः समक्षं प्रस्तुतमासीत्। विधेयकमिदं सन्देशं मन्त्री परिषदि प्रत्यावर्तितमस्तीति ज्ञापयता तात्कालिक्य मन्त्री परिषद गत विक्रमवर्षस्य मार्गशीर्षमासस्य द्वितीय दिवसस्य निर्णयस्य अनुसारेण प्राप्त सांविधानिक परिषद सम्बन्ध गतविक्रमवर्षीय प्रथम संशोधनाध्यादेश न स्वीकृतोऽस्तीति स्मारितं वर्तते। सर्वकारेण अष्टौ अध्यादेश स्वीकृत्यर्थं राष्ट्रपतेः समक्षं प्रस्तुता आसन्। तेष् सप्ताध्यादेश स्वीकृता सन्ति चेत् पुनर्विचाराय सांविधानिक परिषद सम्बद्धादेश ह्य मन्त्रिपरिषदि एव प्रत्यावर्तितोऽस्ति। गत विक्रम वर्षस्य चैत्र मासस्य 12 दिवसात् पूर्वं सार्वजनिक निकायेष् नियुक्ताः पदाधिकारिणः स्वतः पदमुक्ताः वर्तन्ते। मन्त्री परिषदः परामर्शेन राष्ट्रपतिना रामचन्द्र पौडेलेन शनिवासरे क्रियान्वितस्य एतद्विक्रम वर्षस्य सार्वजनिक पदाधिकारिणां पदमुक्ति सम्बद्धस्य विशेष व्यवस्था विषयकाध्यादेशस्य द्वितीयस्य प्रकरणस्य प्रथमोपप्रकरणस्य व्यवस्थायाः अनुसारेण पदाधिकारिणः स्वतः मुक्ताः सन्तीति मन्त्रालयेन ज्ञापितं वर्तते। प्रकरणेऽस्मिन् सार्वजनिक पदाधिकारिणां नियुक्तौ यस्यां कस्यामपि स्थितौ यस्य कस्यापि सौविध्यानुबन्धस्य पदावधेश्च समुल्लेखे सत्यपि अध्यादेशस्य प्रारभणानन्तरं पदाधिकारिणः कार्यरतेभ्यः पदेभ्यः स्वतः मुक्ताः सन्तीति विधि न्याय संसदीय विषय मन्त्रालयेन ज्ञापितम् वर्तते। अस्य अध्यादेशस्य द्वितीयस्य प्रकरणस्य द्वितीयोपप्रकरणे पदमुक्तेभ्यः पदाधिकारिभ्यः सम्बद्धस्य मन्त्रालयस्य सचिवेन निर्दिष्टेन अधिकारिण वा पदमुक्तेः सूचनायाः प्रदानस्य व्यवस्था वर्तते। प्रधानमन्त्रिणः बालेन्द्रशाहस्य नेतृत्वे विद्यमानेन सर्वकारेण प्राशासनिक सुदृढीकरणाय राज्यस्य निकायान् गतिशीलान् विधातुं च कार्यमिदं विहितमस्ति। रासोपा दलस्य सचिवालयोपवेशेन सम्प्रति अवैध संरचनातः अपसारितानां भूमिहीनानां जनानां नागरिकाणां कृते अस्यैव वर्षस्य चैत्र मासान्तं यावत् भोजनावास स्वास्थ्य प्रभृतिः सर्वः व्यवस्थाः विधातुं सर्वकारः अनुरुद्धो वर्तते। उपवेशस्य अनन्तरं प्रवक्ता मनीष झा अधिकार सम्पन्नं प्राधिकरणं संघटय्य भूमिहीनानां जनानां विवरणस्य संकलनं यावत् अवैध संरचनाः विहाय अन्यत्र विद्यमानाः गृह संरचनाः न त्रोटयितुं सर्वकारः अनुरुद्धोऽस्तीति असूचयत्। प्रवक्ता झा स्थानीयस्तराणाम् आगामिनः निर्वाचनस्य कृते प्रत्याशिता समूहस्य घोषणा विहितास्ति। प्रत्याशिता प्रचयन कार्यविधिश्च उपवेशेन पारितीकृतोऽस्तीति च असूचयत्। काष्ठमण्डप उपत्यकायाः बागमती नद्याः सहायक नदीनाञ्च सर्वकारीय भूमेः सार्वजनिक भूमेश्च अतिक्रमणं कृत्वा अवैधानिकरूपेण निर्मितानां संरचनानां भञ्जनस्य अपसारणस्य च अभियानं ह्योऽपि संचालितं वर्तते। नगरीय विकास मन्त्रालयस्य काष्ठमण्डप जनपद प्रशासन कार्यालयस्य काष्ठमण्डप महानगरपालिकायाश्च समन्वयेन ह्यो बुढा नीलकण्ठ नगरपालिकायाः कपन क्षेत्रे अनधिकृत रूपेण निर्मिताः संरचनाः अपसारिताः सन्ति काष्ठमण्डप जनपदस्य सहायक प्रमुख जनपदाधिकारी मुक्तिराम रिजाल सुसैयद एवमेव ह्य धोबी खोला नद्या तटीय मार्गस्य अन्तर्गत यो अनामनगर देवीनगर यो विष्णुमती नद्या तटीय क्षेत्रस्य बालाजु माछा पोखरी स्थानयो तिलगंगा क्षेत्रस्य च अवैध संरचनानां त्रोटनस्य अभियानं संचालितं वर्तते। सहायक प्रमुख जनपदाधिकारिण रिजालस्य अनुसारेण अधुनावधि काष्ठमण्डप उपत्यकाया अभ्यन्तरे आसन्न सहस्रद्वयं शतत्रयं च अवैध संरचना अपसारिता वर्तन्ते। अत्रान्तरे नगरीय विकास मन्त्रालयेन काष्ठमण्डपस्य वाग्वत्याः सहायक नदीनांश तटीय क्षेत्रेषु संकटग्रस्त वसतीनां स्थानान्तरणस्य प्रक्रियातः वञ्चिताः नागरिकाः यथाशीघ्रं सम्पर्के आगन्तुम् अनुरुद्धा वर्तन्ते। मन्त्रालयेन पूर्वेद्युः प्रकाशितायां विज्ञप्तौ असहायावस्थायां विद्यमानाः मार्गे द्वैविध्ये विद्यमानाश्च नागरिकाः प्राथमिक रूपेण स्वस्य विवरणस्य पञ्जीकरणाय निर्धारितायां त्रिपुरेश्वरस्य दशरथ रंगशालायां उपस्थाप्य स्वस्य पञ्जीकरणं विधातुम् अनुरुद्धा वर्तन्ते। वस्तुनः भूम्यावासविहीनः आर्थिक रूपेण दुर्बलाश्च नागरिकाः पञ्जीकरण केन्द्रे उपस्थाय सर्वकारेण प्रदत्तानां आवास भोजन स्वास्थ्य सेवानां बाल बालिकानां शिक्षा मनोवैज्ञानिक परामर्शनादीनां आधारभूत सेवा विद्यानांश उपयोगं कर्तुमपि मन्त्रालयेन अनुरुद्धा वर्तन्ते। नागरिकाणां सुरक्षित व्यवस्थित दीर्घकालिक पुनस्थापनायां सर्वकारः पूर्णतः प्रतिबद्धोऽस्तीति च मन्त्रालयेन स्पष्टीकृतं वर्तते। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयेन भू अभिलेख सूचना व्यवस्थापन प्रणाल्या माध्यमेन भूम्यावासहीनानां जनानां परीक्षणस्य कार्यं प्रारब्धं वर्तते।